अत श्रीदक्षिणामूर्तिस्तोत्रम्
विश्वं दर्पणदृश्यमाननगरे तुल्यं यान्तर्गतं पश्यन्नात्मनि मायया बहिरिवो भूतं यथा निद्रया यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम् तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये वीरस्यान्तरिवाङ्कुरो जगदिदम् प्राङ्निर्विकल्पं शरैः मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् मायावीव विजृम्भयत्यपि महा योगी वयस्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये यस्यैव स्फुरणं सदात्मकमसत् कल्पार्थकं भासते साक्षात् तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् साक्षात्करणात् भवेन्न पुनराम्बोनिनौ तस्मै श्रीगुरुमूर्तये नमयम् श्रीदक्षिणामूर्तये नानाच्छिद्रगडोदरस्थितमः दीपप्रभास्वरम् ज्ञानं यस्य तु चक्षुरादिकरण द्वारावहिस्पन्दते जानामीति तमेव भान्तम् अनुवाक्येतत्समस्तम् जगत् तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये देहम् प्राणमपि इन्द्रियाण्यपि चलाम् बुद्धिम् च शून्यम् विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ताभिषम् वादिनः मायाशक्तिविलासकल्पितमः व्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः कर्णोपसंहरणतो यो भूत् सुषुप्तः पुमान् रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये बाल्यादिष्वपि जाग्रदादिषु तथा सर्वासमस्तास्वपि व्यावृत्तास्वनुवर्तमानम् अहमित्यन्तम् स्फुरन्तम् सदा स्वात्मानम् प्रकटीकरोति भजता यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये विश्वं पश्यति कार्यकारणतया स्वस्वामि सम्बन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना वेदः स्वप्ने जाग्रति वा येष पुरुषो माया परिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये घोरं वाञ्चलोलोम्बरः नाथो हिमां सुकुमान् इत्यावादिचराचरात्मकमिदम् यस्यैव मुक्त्यष्टकम् नान्यत्किञ्चन विद्यते विमृषताम् यस्मात् परस्माद्विभो तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये सर्वात्मत्वमिति स्फुटीकृतमिदम् यस्मादमुष्मिन् सर्वे तेनास्य श्रवणात् तदर्थमननात् ज्ञानाच्च सङ्कीर्तनात् सर्वात्मतो महाविभूतिशरीरम् स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनश्चतः परिणतं चैश्वर्यमव्याहतम्।